इदं ते पात्रं सनावित्तमिन्द्रपिभासो न मेना स दक्रतो पूर्ण आहापो मदिरस्य मध्वोऽयं विश्वजिदभिहर्यन्ति देवाः जिगित्वामिन्द्रवृथा जनासो हितप्रायसो विषभक्वजन्ते अस्माकम् ते मधुमत्तमानीमा भूवन्सवनातेषु हर्य रथ इन्द्रपूर्याणि प्रनूनम् वीर्या वोचम् प्रथमाकृतानि सदीनमन्यरस्रथायो अद्रिम् सुवेदनामकृणोर्ब्रह्मणेगा निषदीयगणपते गणेषु त्वा माहुर्विप्रथमम् कवीना नरिते त्वत्क्रियते किञ्चनाय महामत्कम् मघवम् चित्रमच्च अभिख्यानो मघवन्नाधमानान् सखे बोधिव सुपते सखीनाम् रणम् कृतिरणगच्छत्य सुष्मा भक्ते चिदा भजा राजे अस्मान् तमस्यज्या वा पृथिवी सचेतसा विश्वेभिर्देवैरनु सुष्मामावताम् यदैत्रम् बालो मा इमानमिन्द्रियम् वीत्मे सोमस्य क्रतुमाङ्गवर्धत तमस्य विष्णुर्म इमानमोजसां सुन्दधन्वान् मधुनो विरप्सते देवेभिरिन्द्रो मघवा सजावभिर्वृत्रम् जघन्वान्भवद्वरेण्यः वृत्रेण यदयीना विभ्रदायुधा समस्थितायुधये संसमाविदे विश्वेते अत्र मरुदः सहत्मनामध्वन्नुग्रमहिमानमिन्द्रियम् विज्ञान एवव्यबाधतस्पृह प्रापश्चद्वीरो अभिपौंस्यम्रणम् अवृश्चद्रिमवसस्य तसृजतस्तभ्रान्नागम् स्वपश्यया पृथम् आदिन्द्रः सत्यादवीषीरपत्यदवरीयोज्यावा पृथिवी अबाधत अपाभरदृषितो वज्रमाय संश्रेमम् मित्राय वरुणाय दासुषे इन्द्रस्यात्रदवीषेभ्यो विरप्सिरर्घायतो आरम्भयन्तमन्यवे वृत्रम् यदुग्राव्यवृश्चतो जापो बिभ्रतम् तमसा परीवृतम् या वीर्याणि प्रथमानि कृत्वा महित्तेभिर्यतमानौ समीयतुः ध्वान्तम् तमो वदध्वसे हत इन्द्रो मह्ना पूर्वभूतावपत्यत विश्वे देवासो अधवृष्ण्या निते वर्धयन् सोमावत्यावचस्यया रद्धम् रद्धमहिमिन्द्रस्य हन्मानाग्निर्नयम् वैस्पृष्वन्नामावयत् भूरिदक्षेभिर्वचनेभिर्विक्वाभिः सख्येभिः सख्यानि प्रमोचत इन्द्रोऽधुनिम् चचुमूरिम् च दम्भयम् श्रद्धामनस्याधेनतेतभीताये त्वम् पुरोऽन्याभराश्वस्यायेभिर्मंसैर्निवचनानि संसन् सुगेभिर्विश्वादुरितातारेम विदोषु न गुर्भिजागाधमद्य धर्मा समन्दात्रिवृतम् यापदस्तयोर्जुष्टिम् मादविश्वा जगाम इन्द्रस्वज्योतिधीराणामेषन् विदुर्देवाः सहसा मानमर्कम् तिस्रो देष्टाय निर्वृतिरुपाः सते दीर्घश्रुतो विहि जानन्ति वह्नायः तासाम् निदिक्यः कवयो निदानम् परेषु यागुह्येषु व्रतेषु चतुष्कपर्दायुपतिः सुपेशाः घृतप्रतीका वयुना निवस्ते अस्याम् सुपर्णानिषनानिषेदधुर्यत्र देवादधिरेभागधेयम् एकः स्वपन्नः स स मुद्रमावीवेश स इदम् विश्वम् भुवनम् वितष्टे ಸಮಂ ವಾಕೇ ನಮನ ಸಾ ಪಶ್ಯಮಂತಿ ತಸ್ತಂ ಮಾತಾರೇಭಿ ಸಭೂರೇಭಿ ಮಾತರಂ ಸುವರ್ಣಂ ವಿಪ್ರಾಃ ಕವಯೋಪಚೋಭಿರೇಕಂ ಸಂತಂ ಬಹುಧಾ ಕಲ್ಪಯಂತಿ ಛಂದಾಂಸಿ ಜನಧಾತೋ ಅಧ್ವರೇಷು ಗೃಹಾನ್ ಸೋಮಸ್ಯ ವಿಮತೇ ದ್ವಾದಶ ಷಟ್ಂಸಾಂಶ್ರದುರ ಕಲ್ಪಯಂತಶ್ಚಂದಾಂಸಿ ಜನಧಾತ ಆದ್ವಾದಶಂ ಯಜ್ಞಂ ವಿಮಾಯ ಕವಯೋ ಮನೀಷರಿಕ್ಸಾಮಾಭ್ಯಾಂ ಪ್ರರಥಂ ವರ್ತಯಂತಿ ಚತುರ್ದಶಾನ್ಯೇಮ ಹಿಮಾನೋ ಅಸ್ಯತಂ ಧೀರಾ ವಾಚಾ ಪ್ರಣಯಂತಿ ಸಪ್ತ ಆತ್ಮಾನಂ ತೀರ್ಥಂ ಕೈಹ ಪ್ರವೋ ಜಜ್ಜೇನ ಪಥಾ ಪ್ರಪಿಬಂತೆ ಸುತಸ್ಯ ಸಹಸ್ರಧಾ ಪಂಚದಶಾನ್ಯುಕ್ತಾಯ ವದ್ಯಾ ವಾ ಪೃಥಿವೀತಾ ವದಿತ್ತತ್ ಸಹಸ್ರಧಾಮಿಮಾನ ಸಹಸ್ರಂ ಯಾವದ್ ಬ್ರಹ್ಮವಿಷ್ಟೀತಂ ತಾವದೀವಾಗ್ ಕಶ್ಚಂದಸಾಂ ಯೋಗಮಾವೇದಧೀರಃ ಕೋದಿನ್ಯಾಂ ಪ್ರತಿವಾಚಂ ಪಪಾದ ಕಮೃತ್ಯುಜಾಮಷ್ಟಮಂ ಸೂರಮಾಹುರ್ಹರೀಂದ್ರಸ್ಯ ನಿಚಿಕಾಯಕಸ್ವೀತ್ ಭೂಮ್ಯಾ ಅಂತಂ ಪರ್ಯೇಕೇ ಚಲಂತಿ ರಥಸ್ಯ ಧೂರ್ಯುಕ್ತಾಸೋ ಅಸ್ತು ಶ್ರಮಸ್ಯ ದಾಯಂ ವಿಭಜಂತೇಭ್ಯೋ ಯದಾಯಮೋ ಭವತಿ ಹರ್ಮ್ಯೇ ಹಿತಃ ಚಿತ್ರಯಕ್ಷಿಷೋಸ್ತರೋ ನಸ್ಯ ಭಕ್ಷಸೋ ನಯೋ ಮಾತರಾ ಭಗ್ಯೇತಿ ಧಾತವೇ ಅನುಮಧಾಯ ದಿಜೀಜ ನ ದಧಾ ಜನು ಮಮಕ್ಷ ಸದ್ಯೋ ಮಹೀ ಧೂತ್ಯಾ ಅಂಚರನ್ ಅಗ್ನಿರ್ಹನಾಮಧಾಯಿದನ್ನಪಸ್ತಮಸ್ಸಂಯೋವನಾ ಯುವತೆ ಭಸ್ಮನಾದತ ಪ್ರಮುರಾಜುಕ್ವಾ ಸ್ವಧ್ವರ ಜಿನೋ ನ ಪ್ರೋಧ ಮಾನೋ ಜಪಸೇ ವೃಷಾ ತಂ ಗೋವಿನ್ನ ದೃಷದಂ ದೇವಮಂಧ ಸಯಿಂದ್ರಂ ರೋಧಂ ತಂ ಪ್ರಪಂತಮರ್ನವಂ ಆಶಾವನ್ನ ಶೋತಿಷಾ ವಿರಪ್ಸಿ ನಮ್ಮಹಿವ್ರತಂ ನ ಸರಜಂ ತಮಧ್ವನಃ ವಿಯಸ್ಯ ತೇದ್ರಯಸಾನಸ್ಯಾಜರದಕ್ಷೋರ್ನವಾತಾಃ ಪರಿಹಂತ್ಯಚ್ಯೂತಾಃ ಆರಂಡಾಸೋ ಯುಯೋಧಯೋ ನ ಸತ್ವನಂ ಧೃತಂ ನ ಸಂತ ಪ್ರಸಿಡಂತ ಇಷ್ಟಯೇ ಸಯಿದಗ್ನಿಃ ಕಣ್ವ ತಮಃ ಕಣ್ವ ಸ ಕಾರ್ಯಃ ಪರಸ್ಯಾಂಧರಸ್ಯ ತರುಷಃ ಅಗ್ನಿಃ ಪಾತು ಗ್ರಹೋ ಅಗ್ನಿಃ ಸೂರೀರಗ್ನಿರ್ದದಾತು ತೇಷಾಮಮೋ ನಃ ವಾಜಿಂತ ಮಾಯ ಸಖ್ಯ ಸೇತು ಪಿತೃಶುಚವಾನೋ ಅನುಜಾತ ವೇದಸೇ ಅನುದ್ರೇ ಶಿಜ್ಯೋದೃಷತಾ ಪರಂ ಸದೇ ಮಹಿಂದ ಮಾಯಧನ್ವನೇದ ವಿಶ್ಯತೆ ಏವಾಗ್ನಿರ್ಮತ್ತೈ ಸಹ ಸೂರಿಭಿರ್ವಸುಷ್ಟವೇ ಸಹ ಸೂನರೋ ನೃಧೀಃ ನಿಮಿತ್ರಾಸೋ ನಯೇ ಸುಧೀತಾರಿಕಾಯ ಬೋಧ್ಯಾ ಬೋನದ್ಯುಮ್ನೈರಭಿಸಂಧಿ ಮಾನುಷಾನ್ ಊರ್ಜೋ ನವಾತ್ ಸಹಸಾ ಮನ್ನಿತಿ ತ್ವೋಪಸ್ತು ತಸ್ಯ ವಂದತೆ ವೃಷಾವಾಕ್ ತ್ವಾಂ ಸೋಷಾಮತ್ವಯಾ ಸುವೀರಾದ್ರಾಘೀಯಾಯುಃ ಪ್ರಥಮಂ ದಧಾನಾಃ ಇತಿ ತ್ವಾಗ್ನೇ ವೃತ್ಯಹವ್ಯಸ್ಯ ಪುತ್ರಾವೋಪಸ್ತುತಾ ಸರ್ಷಯೋ ವೋಚನ್ ತಾಂಶ್ಚ ಪಾಹಿಗೃಹತಶ್ಚ ಸೂರೇನ್ವಷಡ್ವಷಲಿತ್ಯೂರ್ಧ್ವಾಸೋ ಅನಕ್ಷನ್ ನಮೋ ನಮಲಿತ್ಯೂರ್ಧ್ವಾಸೋ ಅನಕ್ಷನ್ ವಾಸೋಮಂ ಮಹತಯಿಂದ್ರಿಯಾಯ ಪಿಬಾಧೃತ್ರಾಯ ಹಂತ ವೇದವಿಷ್ಟ ತ್ರಿಪರಾಯೇ ಸವಸೇ ಹೂಯಮಾನಃ ಪಿಬಮದ್ಧಸ್ತ್ರಿಪದಿಂದ್ರಾವೃಷಸ್ವ ಅಸ್ಯ ವಿವಕ್ಷುಮದಃ ಪ್ರಸ್ಥಿತಸ್ಯೇಂದ್ರಸೋಮಸ್ಯ ಪರಮಾಸುತಸ್ಯ ಸ್ವಸ್ತಿ ರಾಮನ ಸಾಮಾದಯಸ್ವಾರ್ವಾಚೀನೋ ರೇವತೇ ಸೌಭಾಗಾಯ ಮಮತ್ತತ್ವಾ ದಿವ್ಯಃ ಸೋಮ ಇಂದ್ರ ಮಮತ್ತು ಯಃ ಸೂಯತೆ ಪಾರ್ಥಿವೇಷು ಮಮದ್ವಿಜೇನ ಪರೀವಶ್ಚಕರ್ಥ ಮಮದ್ವಿಜೇನ ನಿರ್ನಾಸಿ ಶತ್ರೂನ್ ಆದ್ಯವರ್ಗಾ ಅಭಿನೋ ಯಾತ್ವಿಂದ್ರೋ ವೃಷಾ ಹರಿಭ್ಯಾಂ ಪರೀಷಿತ್ತಮಂಧಾಃ द्रव्यासुदस्य प्रभृतस्य मध्वः सत्राखेदामृषहावृषस्व निदिग्मानि भ्रासयन् भ्रास्यान्यवस्थिरातनुगियातु यूनाम् उग्राय ते सहोबलम् ददामि प्रतीत्या शत्रोऽन्विगदेषु वृश्च या अर्ययिम् गतमिः श्रभांशोजस्थिरेव धन्वनोऽभिमादीः अस्मद्रग्वावृधानः सहोभिरनीभिष्टस्तन्वम् वावृधस्व इदम् हविर्माघवन्तुभ्यम् रातम् प्रदीशम् रामघृणानोजुभाय तुभ्यम् सुतोमाघवन्तुभ्यम् पक्वोद्धीन्द्रपिबाज प्रस्थितस्य अद्धीदिन्द्रप्रस्थिते मा हवींषितनो दधिष्वपचतो दसोमम् प्रयस्वन्तः प्रतिहर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः रेन्द्राग्निभ्याम् सुवचस्यामीयन्मि सिन्धामि भग्रेरयम् नावमर्कैः अया इव परीचरन्ति देवाये अस्मभ्यम् धनदा उद्भिदश्च नवाभो देवाः क्षुधमिद्वदन्तदुरुदासीतमुपगच्छन्ति वृत्यवाः उदोरयः प्रेणतो नोपादस्य च्युता प्रेणन्मर्दितारम् न विन्दते य आध्राय चकमानाय वित्तोन्न वात्सन्नभितायोपजग्मुषेः स्थिरम् मनश्च कृते सेवते पुरोतो चित्समर्दितारम् न विन्दते सेद्भोजो यो गृहवेदधात्यन्न कामाय चराते कृशाय अरामस्मै भवति यामाहूता उदा परीषो कृणते सखायम् न स सखायो न ददातिशक्ये स चाभुवे स च मानाय भित्वः अपास्मात्रेयान्न तलोको अस्ति मन्यमराणम् चिकित्सेत् नीयादिन्नाधमानाय द्रव्याम् द्राहीयाम् समनोपस्येत पन्था वो हि वर्तम् ते रथ्येव चक्राण्यमन्यमुपातिष्ठम् तरायाः मोघमन्नम् विन्दते अप्रचेताः सत्यम् रावीमि वधयित्सदस्य नार्यमलम् पुष्य चिनो सखायम् केवलाधो भवति केवलादी कृषन्नध्वालासीतम् कृणोति यन्नध्वानमपवृङ्गे चरित्रैः वदन् ब्रह्मावदतो मनीयान् प्रणन्नाभिरप्रेणन्तमभिष्यात् एकपाद्भूयोद्विपदो विचक्रमे द्विपाद्विपादमभ्येति पश्चात् चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन् पङ्क्तिरुपतिष्ठमानः समौ निर्धस्तौ न समम् वेविष्टः सम् मातरा चिन्न समम् दूहादे यमयोश्चिन्न समावीर्याणि ज्ञाति चित्सन्तौ न समम् वेणीतः अग्नेहम् चिन्या अग्निनम् वीर्जन्मध्येष्वा स्वेक्षये सुव्रत उत्तिष्ठसि स्वाहृतो घृता निःप्रति मोदते समस्तीरन् साहूतो विरोचते निरीवेण्यो गिरा सृजा प्रतीकमज्जते घृतेनाग्निः समज्जते मधुप्रतीक आहूतः तोरमानो विभावसुः धरमानः समिध्यसे देवेभ्यो हव्यवाहन सम्पाहवन्तमर्त्याः मर्ता अमर्त्यम् घृतेनाग्निम् स पर्यत अदाभ्यम् गृहपादिम् अदाभ्येन शोचिषाग्ने रक्षस्वन्दाः गोपालस्य दीदिः स त्वमग्ने प्रतीकेन प्रत्योषयातु धान्याः वृक्षयेषु दीद्यत् स अन्त्वागीर्भिरो रुक्षयाः व्यवाहम् समीधिरे यजिष्ठम् मानुषे जने इति वा इति मे मनो गामस्वम् सविजामिति कुवित्सोमस्यापामिति प्रभाताय वदोदतमुन्मा पीतायम् सदा कुवित्सोमस्यापामिति उन्मा पीतायम् सतरसमस्वायि वासवाः कुवित्सोमस्यापामिति उपामामतिरस्थितभाश्रपुत्रमेव प्रियम् कुवित्सोमस्यापामिति अहम् दष्टेव बन्धुरम् पर्याचामि हृदा मतिम् कुवित्सोमस्यापामिति नहि मे अक्षिपच्छनाच्छान् स्वपञ्च दृष्टयाः कुवित्सोमस्यापामिति नहि मे रोदसी उभे अन्यम् पक्षम् च न प्रति कुवित्सोमस्यापामिति अभिद्यामहिना भूपमभीमाम् पृथिवीम् महीम् कुवित्सोमस्यापामिति अन्दाहम् पृथिवीमिमाम् निदधानीह वेहवाः कुवित्सोमस्यापामिति घोषविद्पृथिवीमहम् जङ्घनानीह वेहवाः कुवित्सोमस्यापामिति दिवि मे अन्यः पक्षो बोधो अन्यमचीकृषम् कुवित्सोमस्यापामिति अहमस्मि महामहोऽभिरभ्यमुदीषितः कुवित्सोमस्यापामिति गृहो याम्यरम् कृतो देवेभ्यो व्यवाहनः कुवित्सोमस्यापामिति भद्रम् न अपि वादयमनाः ओ हरिः ओ अधिरासभुवने शुज्येष्टम् यतो यज्ञमुग्रस्तेषणम् नः सद्योजज्ञानो हरिनाजिशत्रो न नियम् विश्वेम दन्त्युमाः आविधानश्रवसा भूर्योजाश्रत्रुर्दासायाभियसम् दधाति अव्यनच्च व्यनच्च सस्निसन्देन पन्तप्रभृतामदेषु द्वे क्रतुमपि वृञ्जन्ति विश्वेत्यर्यदेतेत्यर्भवन्त्युमाः स्वादो स्वादीय स्वाधुना सृजा समधस्य मधुमधूनाभियोधीः इति सिद्धिप्राधना जयन्तम् मदे मदे अनुमदन्ति विप्राः ओजीयो धृष्णो स्थिरमादनुष्णमात्मादभन्यादुधानादुरेवाः मया वयम् सा सद्महेरणेण प्रपश्यन्तो युधेन्याः निभूति ोदयामितायुधावचोभिः सन्दे सिधामि ब्रह्मणावयांसि सुधेयम् पुरवत्पसमृद्भमिनतममात्यमात्यानान् आदर्शते सवसा सप्तदानोन्प्रसाक्षते प्रतिमानानि भूरि निदद्दधिलेवरम् परम् जयस्मिन्नाभिधावसाधुरोणे आमातरा स्थापयसे जिघत्नो अपयिनोषिकर्वरा पुरूणि इमा ब्रह्म बृहद्दीवो विभक्तीन्द्राय सूषमग्रियस्वर्गाः महोगोत्रस्य क्षयति स्वराजो दुरस्य विश्वा अवृणोदपस्वाः एवा महान् बृहद्दीवो अथर्वावो जस्वाम् तन्वामिन्द्रमेव सदारोमादरिभरीरनिप्राहिन्वन्ति च सवसा वर्धयन्ति च हिरण्यगर्भस्वमावर्तताग्ने भूतस्य जातः प्रतिरेक आसीत् सदाधारपृथिवीञ्जामुदेमाम् कस्मै देवाय हविषा विधेम यहात्मना भारताय सविश्व उपासते प्रशिषं यस्य देवाः यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महित्वैकयिद्राजा जगतो बभूव यैषे अस्य द्विपदश्च दुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहाहुः यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम येन द्योरुग्रा पृथिवी च दृढा येन स्वस्वभितम् येन नाकाः यो अन्तरिक्षे रजसोऽभिमानः कस्मै देवाय हविषा विधेम यम् ग्रन्थसि अवसादस्तभाने अभ्यैक्षेताम् मनसा रेजमाने यत्राधिदूर उदितोऽभिभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहदीर्विश्वमायम् गर्भम् दधाना जनयन्तीरग्निम् ततो देवानाम् समवर्तता सुरे गत्कस्मै देवाय हविषा विधेम यश्चिदापो महिला पर्यपश्यद्दक्षम् दधाना जनयन्तीर्यज्ञम् यो देवेष्वधि देवयेक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसेज्जनिताय पृथिव्यायो भादिवम् सत्यधर्माजान यश्चापश्चन्द्रा बृहतीर्जान कस्मै देवाय हविषा विधेम प्रजापदेन त्वदेनान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्यामपदयोगीनाम् वसुम् न चित्रमाघसङ्गृणीषे वामम् सेवमतीथिमद्विषेण्यम् सरासते सुहृदो विश्वधायसोऽग्निर्होता गृहपति सुवीर्यम् युषाणो अग्ने प्रतिहर्यमेव च विश्वानि विद्वान् वयुनानि सुक्रतो घृतानि ब्रह्माणे गातुमेरयतव देवा जनयन्ननु व्रतम् सप्तधामानि पर्यन्नमर्त्योदासद्धासुषे सुकृते वामहस्व श्रीरेण रयिनाग्ने स्वाभुवायस्तानत्समिघातम् जूषस्व यज्ञस्य केतुम् प्रथमम् पुरोहितम् भविष्मन्तयीलते सप्तवादिनम् शृण्वन्तमग्निम् कृतपृष्ठमुक्षणम् प्रणन्तम् देवम् प्रेणते सुवीर्यम् त्वम् दोदः प्रथमो वरेण्यस्त भूयमानो अमृताय मत्स्व त्वाम् मर्जयन्मरुतो दासुषो गृहे त्वाम् सोमेभिर्मृगभो विरुरुचुः इदम् दुगम् सुधाम् विश्वधाय संयज्ञप्रिये यजमानाय सुक्रतो अग्ने घृतस्नस्त्रहृतारिजद्वर्तिर्यज्ञम् परियन् सुक्रतोयसे स्वामिदस्यावृषसोऽप्योक्षिषदूतम् गण्वानायजन्तमानुषाः त्वाम् देवामहयाय्याय वा पृथुराज्यमग्नेन भृजन्तो अध्वरे नित्वावशिष्टालह्वन्तवाजिनम् गृणन्तो अग्ने विदधेषु मेधसाः राजस्फोटम् यजमानेषु धारय यूयम् वात स्वस्तिभिः सदा नः अयम् वेन श्रोदयकृष्णीगर्भायोजरायोरजसो विमाने हिममवाम् सङ्गमे सूर्यस्य शिशुन्नविप्रामतिभिः विहन्ति समुद्रादोर्मिमुदीयर्ति वेनो न भोजा पृष्टम् हर्यदस्य दर्शि ఋతస్థానామీవిష్టవిభ్రాత్సమానం యోనిమభ్యనోషదవ్రామానం భూరిరవివాసానాష్టం వత్స మాతరస్ నీలా ఋతస్థానామీచక్రమానాగంతి మధ్వో అమృతస్థరాధీ జానందోపమాగతంత విప్రామృగస్య ఘోరం మహిరస్య హిగ్మన్నోమస్తర్విదద్గంధర్వో అమృతారిణామ అప్సరాజారమోపదృష్టియానాయోరావిభర్తి పరమేవ్యో మన్ శరత్ప్రియస్యోనేషు ప్రియశాంశీరత్ప్రక్షేహిరణ్యజేతమేన నాగేరువర్ణముపయత్వదం అభ్యచక్షరత్వా హిరణ్యపక్షం వరుణస్య దూతం జమస్య యోనౌ శగుణం భూరణ్యం ఊర్ధ్వగం ధర్వాధినాగే అస్తాత్ ప్రత్యం దిమిత్రా విభ్రాజస్యాయుధాని వసానోత్కం సురభిం ఋషేకం స్వాహర్ణనామ జనత ప్రియాని రక్షస్తముద్రమభియజ్జిగాధిపస్సంగ్రద్ధస్యరక్షసాభిధర్మన్ బాణశుక్రేణ శోచిషా జగానస్త్రితీయే చక్రేణి ప్రియాణి ఇమన్నో అగ్నముపయజ్ఞమే హి పంచామం ధృవృతం సప్తదంతం అసోహవ్యవాలుదన పురోరాజ్యోగే దీర్ఘం దమాసయిష్టా అదేవాదేవ ప్రజలాగుహాయన్ ప్రపశ్యమానో అమృతత్వమేమి శివం యత్సం దమసి భోజామి స్వాత్సఖ్యాదరణీనాభీమేమి పశ్యన్నన్యస్యాదీజిం మజాయా ఋతస్య రామవిమీమే గురూని సంసామిపిత్రే అసూరాయ సేవామురజ్ఞయాజ్ఞియం భాగమేమి ప్రీస్తమా అగరమంతరస్మిన్నింద్రం వృణాన పితరం జహామి అగ్నిస్వమామరుణస్తేచ్చ వందే వర్యావద్భాక్రమందామ్యాయన్ నిర్మాయా ఉద్వే అసూరా అభూమన్వం చ మా వరుణ కామయాసే ఋతేన రాజన్నరేదం విభిన్న మమ రాష్ట్రస్యాధీపత్యమేహి ఇదం స్వరితమిదా సవామమయం ప్రకాశపుర్వా అంతరిక్షం అనామవృత్రం నిరేహి సోమహమిష్ప్రాసంతం హమిషా యజామ కవిః కవిత్తాదివిరూపమాస జలప్రభూదేవరో నో నిరవశ్రేయతే క్షేమం కణ్వానాజన యో న సింధవస్థాశ్రవర్ణం సుజాయో పరిభ్రతి జ్యేష్టమింద్రియం సజంతేజీమాక్షేది స్వదయా మదంతీ తాజీం విశో నరాజానం వృణానాభీభత్సు అపవృత్రాదతిష్టన్ ీభత్సూనాం సయుజం హంసమాహురపాం దివ్యానాం సఖ్యేచరం తమ్ అనుష్టుభమనోజూర్యమానమింద్రన్యక్రవయో మనీషా అహం రుద్రేభిర్వసు విస్తరాణ్యహమాదిత్యైరుత విశ్వదేవైః అహం మిత్రావరో నోభాభిర్ణ్యహమింద్రాజ్ఞీ అహమస్మి నోభా అహం సోమమాహనసం విభర్ణ్యహం ద్రష్టారముత భూషణం భగవం అహం దాభిద్రవీణం హవిష్మదే సుప్రావ్యే ఏ యజమానాయ సంపదే అహం రాష్ట్రీ సంగమ జీవసూనాంగిదృశే ప్రసమయజ్ఞయానాదేవాద పురుత్రా భూరిశ్చాత్రాం భూర్యా వేషయంతి मजासो अन्नावत्तियो विपश्य दियः प्राणीधियैम् शृणोत्युक्तम् अमन्तभोमान्तमुपक्षियन्ति श्रुति श्रूत श्रद्धिमन्ते वदामि आदेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतन्तमुग्रम् क्रीणोमिदम् ब्रह्माणम् तमृढिम् तम् सुमेधा अहम् रुद्राय धनुरात नोमि ब्रह्मद्विषे सर्वेऽहम् तवाहु अहम् जनाय समदम् कृणोम्यहञ्जा वा पृथिवी आविवेश अहम् सूरे पितरमस्य मूर्धन्वमयोनिरप्स्वान्दः स मुद्रे ततो विदृष्टे भुवनानु विश्वदामून्द्याम् भस्मनोपस्पृशामि अहमेव वातरिव प्रवाम्यारभमाना भुवनानि विश्वा परो दिव परजेना पृथिव्यैरवदीमहिना सम्बभूव न समम् गो न दुरितम् देवासो अष्टमर्त्यम् सजोषसो यमर्यमा मित्रो नयम् दिवरो नो अधिद्विषाः अधि वयम् वृणीमहे वरो न मित्रार्यमन् येनानिरङ्गसो यूयम् पाथनेता चमर्त्यमधिद्विषाः ते नूनम् नो यमूये वरो नो मित्रो अर्यमा न यिष्ठावुनो नेष निपर्षिष्ठावुनः परिगण्यदिद्विषाः यूयम् विश्वम् परिभाषवरो नो मित्रो अर्यमा युष्माकम् सर्वाणि प्रिये श्याम सुप्रणीतयो दिद्विषाः आदित्यासो अधिसृधो वरो नो मित्रो अर्यमा उग्रम् मरुद्धि रुद्रम् भुवेमेन्द्रमग्निम् स्वस्तये दिद्विषाः नेतारभूषणस्थिरो वरो नो मित्रो अर्यमा अधिविश्वालिदुरिता राजानश्चर्षणीनाम दिद्विषाः सुरभस्मभ्यमूतये वरो नो मित्रो अर्यमा शर्म यच्छन्तु सप्रस आदित्यासो यदीमहे अधिद्विषाः यथा हत्यद्वसवो गौर्यम् यत्परिषितापमुञ्जता यजत्राः एवोऽश्वा अस्मन्मुञ्जताव्यम् हप्रतार्यज्ञे प्रधरम् नायुः ्याख्यदा यदि पूरुत्रा देव्या अक्षभिः विश्वा अधिश्रियोधिता पूर्वप्रामत्या निवतो देव्यो उद्वतराः ज्योतिषा बाधते तमाः दिनस्वरा नमस्कृतोषसम् देव्या यदि अपेदुहासते तमाः सा नो अद्यस्या वयम् निधेया वन्न विक्ष्महि वृक्षेण वसतिम् वयाः निङ्क्रामासो अवेक्षतनिभद्वन्द्वो निभक्षिणाः निश्येनासच्चिरर्थिनाः यावया वृत्या अमृतम् यवयस्तेन मूर्म्ये अथा न सुतरा भव उपभापेऽपि सप्तमः कृष्णम् यत्तमस्थित पुरारिणे वयादय उपदेकादिवाकारम् वृणेष्व दूहितर्दिवः रात्रिस्तो मन्न जिज्ञुषे आरात्रिपार्थिवम् रजः पितरः प्रायुधामाभिः दिवस्तदाम् त्रिभिगति विदिष्टदात्मेषम् वर्तते तमाः ये ते रात्रिरिचक्षसो युक्तासो नभतिर्नव अशीतिः सन्तष्टा उतो ते सप्त सप्ततिः रात्रीम् प्रपद्ये जननीम् सर्वभूतनिवेशनीम् भद्राम् भगवतीम् कृष्णाम् विश्वस्य जगतो नीशाम् संवेशनीम् संयमिनीम् ग्रहनक्षत्रमालिनीम् तपन्नोऽहम् शिवाम् रात्रिम् भद्रे पारमसीमहि भद्रे पारमसीमह्योन्नमः स्तोष्यामि प्रयतो देवीम् शरण्याम् बह्वजप्रियाम् सहस्रसंहिताम् दुर्गाम् जातवेदसे सुनवाम सोमम् शान्त्यर्थम् तद्विजातीनामिषभिस्तोमपाश्रिताः ऋग्वेदे त्वम् त्वमुत्पन्नाराति यतो निदातिवेदाः ये त्वाम् देवि प्रपद्यन्ति ब्राह्मणाः व्यवहनी अविद्या बहुविद्यावासनः पर्षदति दुर्गाणि विश्वा ये अग्निवर्णाम् शुभाम् सौम्याम् कीर्तयिष्यन्ति ये द्विजाः ताम् सारयति दुर्गाणि नामेव सिन्धुम् दुरिताच्यग्निः दुर्गेषु विषमे घोरे सङ्ग्रामे रिपुसङ्कटे अग्निचोरनिवारेषु दुष्टग्रहनिवारिणि दुष्टग्रहनिवारिण्योन्नमः दुर्गेषु विषमेषु त्वम् सङ्ग्रामेषु वरेषु च मोहयित्वा प्रपद्यन्ते तेषाम् मे अभयम् कुरु तेषाम् मे अभयम् कुर्वोन्नमः केशिनीम् सर्वभूतानाम् पञ्चमीति च नाम च सामाम् समानिशा देवी सर्वदः परिरक्षतु सर्वदः परिरक्षत्वोन्नमः तामग्निवर्णाम् तपसाज्वलन्तीम् वैरीरोचनीम् कर्मफलेषु दुष्टाम् दुर्गाम् देवी दुर्गा दुर्गेषु स्थानेषु सन्नो देवीरभिष्टये य इमम् दुर्गास्तवम् पुण्यम् रात्रौ रात्रौ सदा पठेत् रात्रिकुशिलशोभरो रात्रिर्वा भारद्वाजी रात्रिस्तवो गायत्री रात्री सूक्तम् जये निर्जम् तत्कालमुपपद्यते लोकयातुम् शिशुलोकयातुम् जहिश्वरातमुदकोकयातुम् सुपर्णयातमुदगृध्रयातुम् दृढदेव प्रमृण रक्ष इन्द्र निसङ्गभृक्तिमम् वृणम् पिशाचीमिन्द्रसंवृण सर्वम् रक्षो निबर्हय हिमस्य त्वा जराजो नासारे परिव्ययामसि उदहृदो हि नो धियोग्निर्ददातु भेषजम् शीतहृदो हि नो धियोग्निर्ददातु भेषजम् अन्तिकामग्निमजनजदूर्वादस्विशुलागमत् अजातपुत्रभक्षाया हृदयम् मम दूयते त्रिपुलम्बनम् बह्वाकाशम् चराजातवेदः कामाय माञ्च रक्षपुत्राम् शरणमभूत्तव लिङ्गाक्षरो हिरग्रीव कृष्णवन्न नमोऽस्तु ते अस्मान्निपर्गरस्येनाम् सागरस्योर्मयोजयथा इन्द्रः क्षत्रम् ददातु वरुणमभिषिञ्जतु शत्रवो निधनम् जान्तु जयत्वम् ब्रह्मतेजसा कपिलजटीम् सर्वभक्षम् चाग्निम् प्रत्यक्षदैवतम् वरुणम् च वशाम् जग्रे मम पुत्रान् सरक्षतु मम पुत्रान् सरक्षत्वोन्नमाः साग्रम् वर्षशरणम् जीव विवखादचमोदज दुःखितांस्तद्विजाम् सैव प्रजाम् च पशुमालय यावदादित्यस्तपति यावद्भाजति चन्द्रमाः यावद्वायुप्लवायति तावज्जीवजयाजय येन केन प्रकारेण को हि नामनुजीवति परेषामुपाकारार्थम् यज्जीवति स जीवति एताम् वैश्वानरीम् सर्वदेवान् नमोऽस्तु ते न चोरभयम् न च सर्पभयम् न च व्याघ्रभयम् न च मृत्युभयम् यस्यापमृत्युर्न च मृत्यः सर्वम् लभते सर्वम् जयते माग्ने वर्चो विहवेष्वस्तु वयम् त्वेम् दानाः सन्वम् पुषेम मह्यम् नमन्ताम् प्रतिशश्च दस्रस्त्वयाध्यक्षेण पृथनाजयेम मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णोरग्निः ममान्तरिक्षमुरुलोकमस्तु मह्यम् वादः पवताम् कामे अस्मिन् मयि देवाद्रवीनमायजन्ताम् मय्यासीरस्तु मयि देवहूतिः दैव्याहोतारो मनुषन्तपूर्वेरिष्टास्याम तन्वा सुवीराः मह्यम् यजन्तु मम जानी हव्याकूदः सत्यामनसो मे अस्तु ये नो मानिकाम् कथमच्छनाहम् विश्वे देवासो अधिवोचतानः देवी शरुर्वीरुणः कृणोत विश्वे देवास युगवीरयध्वम् माहात्मये प्रजया मातरो भर्मारधामद्विषते सोमराजन् अग्ने मन्यम् प्रतिरुदन् परेषामदब्धो गोपाः परिपाहिनस्त्वम् रत्यम् चोऽयम् तु निगुलः पुनस्ते एमेषाम् चित्तम् प्रबुधाम् विनेशत् धाताधातॄणाम् भुवनस्य यस्पतिर्देवम् त्रातारमभिमातिषाहम् इमम् यज्ञमश्विनो भा बृहस्पतिर्देवाः पान्तु यजमानम् यत्थात् पुरुक्षदानो महिषः शर्मायम् तदस्मिन् भवे पुरुहूतः पुरुक्षुः स नः प्रजायै हर्यस्वमृणयेन्द्रमानो रीरिषोपापराधाः येन सपत्ना अपदे भवन्तिन्द्राग्निभ्यामवबाधामहेतानि वसवो रुद्रादित्यावोपरिस्पृशम् भोग्रम् चेत्तारमहे